देवराजः कदाचित् कार्यनिमित्तं नगरं गतवान्। कार्याणि समाप्य प्रत्यागच्छन् सः कस्यचित् आपणस्य पुरतः स्थितवान्। स च राघवानाम् आपणः। आपणस्वामी देवराजम् आदरातिथ्येन अन्तः आहूय, भवान् क्रीणातु मा वा क्रीणातु, दर्शने का हानिः, एषः उत्तमः राङ्गवः, मूल्यमपि न अधिकम्। यदि भवान् एतं धरति तर्हि जनाः भवन्तं भूस्वामिनं चिन्तयन्ति। एकवारं धृत्वा किञ्चित् दूरं गत्वा आगच्छतु तावत् इति उक्तवान्। देवराजाय राङ्कवं धारितवान् च। देवराजः दाक्षिण्यम् अनुभवन् तं धृतवान्। मार्गे किञ्चित् दूरं गत्वा प्रत्यागतवान्। तत्समये देवराजस्य परिचयम् अप्राप्तवान् इव आपणिकः उक्तवान्। उत्तमं राङ्कवं धृतवान् भवान्, निश्चयेन भूस्वामी एव कश्चित् भवेत्। सौभाग्येन अत्र उपस्थितः भवान्, आगच्छतु आगच्छतु इति। आपणिकस्य वाक्चातुर्येन सन्तुष्टः देवराजः धनं दत्त्वा राङ्कवं क्रीतवान्।